इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। भाजपेति दलस्य वरिष्ठ नेता देवेन्द्र फडणवीसः अद्य सायं तृतीयवारं महाराष्ट्रस्य मुख्यमन्त्रित्वेन शपथग्रहणं स्वीकृतवान्। भारतीय अन्तरिक्ष अनुसन्धान संघटनम् इसरो इत्यनेन अद्य श्रीहरिकोटायाः सतीश धवन अन्तरिक्ष केन्द्रे PSLV-C59 इति प्रक्षेपणयानस्य सफलतापूर्वकं प्रक्षेपणं कृतमस्ति। राष्ट्रपतिः द्रौपदी मुर्मुः प्रोक्तवती यत् 47-2000 भारतस्य विकसित राष्ट्रस्य निर्माणे कृषिः प्रमुखा अस्ति। रूसस्य राष्ट्रपतिना व्लादिमीर पुतिनेन भारते लघु मध्यमोद्यमानां स्थितिः सुदृढं कर्तुं प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वभूतस्य सर्वकारस्य प्रशंसा कृता अस्ति। अपि च महिला क्रिकेट क्रीडायां ब्रिस्बेन नगरे त्रयाणां क्रिकेट क्रीडा श्रृंखलायाः प्रथमायाम् एकदिवसीय अन्ताराष्ट्रिय क्रीडायाम् ऑस्ट्रेलिया दलेन भारतं 5-2 पराजितम्। अथ वार्ताः विस्तरेण। भाजपेति दलस्य वरिष्ठ नेता देवेन्द्र फडणवीसः अद्य सायं तृतीयवारं महाराष्ट्रस्य मुख्यमन्त्रित्वेन शपथग्रहणं स्वीकृतवान्। भाजपादलस्य नेतृत्वे महायुति ग्रन्थिबन्धनेन महाराष्ट्रस्य विधानसभा निर्वाचने 30+200 निर्वाचनासनानि विजितानि आसन्। भाजपादलेन सह शिवसेना राष्ट्रवादी कांग्रेसदलं च महायुतौ सम्मिलिताः सन्ति। शपथग्रहण समारोहे प्रधानमन्त्री नरेन्द्रमोदी वरिष्ठ केन्द्रीय मन्त्रिणः मुख्यमन्त्रिणः अन्ये च गणमान्याः उपस्थिताः आसन्। भारतीय अन्तरिक्ष अनुसन्धान संघटनम् इसरो इत्यनेन अद्य श्रीहरिकोटायाः सतीश धवन अन्तरिक्ष केन्द्रे PSLV-C59 इति प्रक्षेपणयानस्य सफलतापूर्वकं प्रक्षेपणं कृतमस्ति। अनेन प्रक्षेपणयानेन श्रीहरिकोटायां स्पेसपोर्ट इत्यत्र प्रक्षेपणस्थलात् सायं 4:15 उड्डयनं समारभत। प्रक्षेपणस्य अनन्तरं इसरो इत्यनेन एक्स इति सार्वजनिक सन्देशपटले प्रोक्तं यत् PSLV-C59 इत्यनेन सफलतापूर्वकं आकाशे प्रयाणं कृतमस्ति, येन इसरो इत्यस्य तान्त्रिक्या विशेषज्ञतया सह यूरोपीय अन्तरिक्ष संघटनस्य प्रोवा-3 उपग्रहाणां स्थापनाय न्यू स्पेस इंडिया लिमिटेड इत्यस्य नेतृत्वे एकस्य वैश्विकाभियानस्य समारम्भम् अभवत्। अवधेयं वर्तते यत् प्रोवा-3 यूरोपीय अन्तरिक्ष संघटनस्य प्रदर्शनाभियानम् अस्ति। अस्मिन् अभियाने द्वयन्तरिक्षयाने सम्मिलिते स्त, ये युगपदेव कक्षायां संस्थापयिष्यन्ते। राष्ट्रपतिः द्रौपदी मुर्मुः प्रोक्तवती यत् 47-2000 भारतस्य विकसित राष्ट्रस्य निर्माणे कृषिः प्रमुखा अस्ति। सा अनुकूलजलवायुः, कुशलकार्यबलम्, उर्वरकभूमिः, उन्नत प्रौद्योगिकी च इत्यादीनां माध्यमेन कृषि उत्पादनम् इतोप्यधिकं वर्धयितुं भारतस्य क्षमतां प्रकाशितवती। राष्ट्रपति मुर्मू अद्य भुवनेश्वरनगरे ओडिशा कृषि प्रौद्योगिकी विश्वविद्यालयस्य 43 दीक्षांत समारोहे प्रवदन्ती आसीत्। प्रधानमन्त्री नरेन्द्रमोदी अद्य नागालैंड राज्यस्य नागरिकान् हार्नबिल महोत्सवस्य 25वर्षस्य उपलक्ष्ये शुभकामनाः प्रदत्तवान्, अभिनन्दनं च कृतवान्। एकस्मिन् सामाजिकान्तर्जालीय सन्देशे श्रीमोदी कतिपयवर्षेभ्यः पूर्वम् अस्मिन् उत्सवे स्वस्य यात्रायां मधुरस्मृतयः स्मरणं कृतवान्, अपि च नागासंस्कृतेः जीवन्ततां अनुभवितुं नागरिकैः आग्रहं कृतवान्। रूसस्य राष्ट्रपतिना व्लादिमीर पुतिनेन भारते लघु मध्यमोद्यमानां स्थितिं सुदृढं कर्तुं प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वभूतस्य सर्वकारस्य प्रशंसा कृता अस्ति। ह्यः मास्कोनगरे एकं निवेशमञ्चं सम्बोधयन् श्रीपुतिनः रूसस्य आयात प्रतिस्थापन कार्यक्रमेण सह अस्य समानतां प्रतिपादयन् प्रावोचत् यत् भारतेन सविशेषं मेक इन इण्डिया इत्यस्मै महत्वं प्रदत्तम्। राष्ट्रपतिना पुतिनेन प्रोक्तं यत् भारतस्य नेतृत्वेन नीतिगत रूपेण स्वहितानां प्राथमिकतायां ध्यानं केन्द्रितं कृतम्। सहैव तेन भारते विनिर्माण संचालनं स्थापयितुं कर्तुं च रूसस्य तत्परता अपि व्यक्तीकृता। श्रीपुतिनेन लघु मध्यमोद्यमानां विकासाय ब्रिक्स देशानां मध्ये पारस्परिक सहयोगं संवर्धनार्थम् अपि आह्वानं कृतम्। तेन आगामि वर्षे ब्राजीले आयोक्ष्यमाणस्य शिखर सम्मेलनस्य अवधौ परस्पर सहयोगस्य विवर्धनाय प्रमुख क्षेत्राणाम् आकलनं विधातुं सदस्य देशाः सम्प्रार्थिताः। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। दिल्ल्यां वायुगुणवत्ततायां परिष्करणं निरन्तरं प्रचलति। अद्य अपराह्णे एकवादनं यावत् AQI इति वायुगुणवत्ता सूचकांकः 161 आसीत्। यः सूचकांकस्य मध्यमश्रेण्यामस्ति। केन्द्रीय प्रदूषण नियन्त्रण विभागस्य अनुसारं नगरस्य केषुचित् क्षेत्रेषु वायुगुणवत्ता सूचकांकस्य स्तरः 200 अत्यक्रामत्। दिल्ल्याः सादीपुर स्थानके वायुगुणवत्ता सूचकांकः 45.2, मुण्डकायां 24.2, नेहरूनगरे 37.2, जहंगीरपुरीक्षेत्रे 8.2, आरकेपुरम् इत्यत्र च 11.2 संसूचितः। भारतीय ऋतुविज्ञान विभागेन IMD इत्यनेन पूर्वानं व्यक्तीकृतम् अस्ति यत् आगामि दिवसद्वयोः दिल्ल्यां राष्ट्रिय राजधानी क्षेत्रे च रात्रौ प्रातश्च समये धूमाच्छादनं सम्भाव्यते। नागरिकोड्डयन मन्त्री किंजरापु राममोहन नायडू अवदत् यत् सम्पूर्णे देशे 57.1% विमानस्थानकानि प्रचलन्ति। सः अवदत् यत् 2014-2000 केवलं 74 विमानस्थानकानि एव प्रचलन्ति स्म। अद्य लोकसभायां पूरक प्रश्नं प्रत्युत्तरन् श्रीनायडू अवदत् यत् प्रधानमन्त्रिणः नरेन्द्र मोदिनः नेतृत्वे सर्वकारेण सम्पूर्णे देशे विमानस्थानकानां जालस्य विस्तारः कृतः अस्ति। रेलमन्त्री अश्विनी वैष्णवः अद्य नवदिल्ली रेलस्थानकस्य परिसरे नवनिर्मितस्य मार्ग रेलयानस्य निरीक्षणं कृतवान्। वार्ताहरैः सह वार्तालापं कुर्वन् श्रीवैष्णवः अवदत् यत् रेलयन्त्र मोटर ट्रॉली सौकर्यस्य आधुनिकीकरणविषये रेलकर्मिभिः पर्यवेक्षकैः च सह विस्तृत चर्चायाः अनन्तरं निर्मितः एषः नूतनः आविष्कारः अस्ति। उन्नयनस्य विषये मन्त्रिवर्यः अवदत् यत् पूर्वं मार्गस्य रक्षणार्थं प्रयुक्तं मोटर ट्रॉली सौविध्यं बहुप्राचीनम् आसीत्। विदेशमन्त्री डॉ एस जयशंकरः अद्य अवदत् यत् भारतं केवलं अन्य अर्थव्यवस्थानां कृते उपभोक्तृ आपणं न भवितुमिच्छति। भारतस्य वैश्विक उत्थान संवर्धनम् इत्यस्मिन् विषये नवदिल्ल्यां भारत एट 100 इति शिखर सम्मेलने सम्बोधयन् डॉ जयशंकरः अवदत् यत् वैश्विक संघटनाः उद्योगाः च भारते न केवलं तस्य आपणार्थम् अपितु तस्य प्रतिभायाः कृते आगच्छन्ति। चीन विषये मन्त्री उक्तवान् यत् भारतं तेन सह स्वास्थ्य व्यापार सम्बन्धः इच्छति, परन्तु तस्य उपरि आश्रितः भवितुं न इच्छति। दिल्ली मेट्रो रेल यानस्य सिग्नलिंग केबल इत्यस्य चौर्येण अद्य ब्लू लाइन मेट्रो रेलयानसेवा सीमित वेगेन प्रचलन्ति। दिल्ली मेट्रो रेल निगमेन प्रोक्तं यत् द्वारका सेक्टर 21 नोएडा इलेक्ट्रॉनिक सिटी वैशाली स्थानक पर्यन्तं मेट्रो रेल मार्ग प्रभावित अभवत्। महिला क्रिकेट क्रीडायां ब्रिस्बेन नगरे त्रयाणां क्रिकेट क्रीडा श्रृंखलायाः प्रथमायाम् एकदिवसीय अन्ताराष्ट्रिय क्रीडायां ऑस्ट्रेलिया दलेन भारतं 5 पराजितम्। श्रृंखलायाः द्वितीया स्पर्धा अस्य दिसम्बर मासस्य 8 दिनांके ब्रिस्बेन नगरे भविष्यति। इति वार्ताः।